योपां पुष्पं वेदा पुष्पवान् प्रजावान् पशुमान् भवति चंद्रमा वा अपां पुष्पं पुष्पवान् प्रजावान् पशुमान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति अग्निर्वा अपाम् आयतनम् आयतनवान् भवति यो अग्नेरायतनं वेदा आयतनवान् भवति आपो वै अग्नेरायतनम् आयतनवान् भवति य एवं वेदा योपाम् आयतनं वेदा आयतनवान् भवति वायुर्वा अपाम् आयतनम् आयतनवान् भवति यो वायोरायतनं वेदा आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति य एवं वेदा योपाम् आयतनं वेदा आयतनवान् भवति आसो वै तपन्नपाम् आयतनम् आयतनवान् भवति यो मुस्य तपत आयतनं वेदा आयतनवान् भवति आपो वा अमुस्य तपत आयतनम् आयतनवान् भवति य एवं वेदा योपाम् आयतनं वेदा आयतनवान् भवति चंद्रमा वा अपाम् आयतनम् आयतनवान् भवति यश्चन्द्रमस आयतनं वेदा आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवं वेदा योपाम् आयतनं वेदा आयतनवान् भवति नक्षत्राणि वा अपाम् आयतनम् आयतनवान् भवति यो नक्षत्राणाम् आयतनं वेदा आयतनवान् भवति आपो वै नक्षत्राणाम् आयतनम् आयतनवान् भवति य एवं वेदा योपाम् आयतनं वेदा आयतनवान् भवति पर्जन्यो वा अपाम् आयतनम् आयतनवान् भवति यः पर्जन्यस्यायतनं वेदा आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवं वेदा योपाम् आयतनं वेदा आयतनवान् भवति संवत्सरो वा अपाम् आयतनम् आयतनवान् भवति यः संवत्सरस्यायतनं वेदा आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवं वेदा यो ओप्सुनावं प्रतिष्ठितां वेदा प्रत्येव तिष्ठति हरिः ओम्।